तस्माद्यज्ञात् सर्वहुतः अर्जस्वामानिजज्ञिरे छन्दागुंसि जज्ञिरे तस्माद् यजस्तस्मादजायत तस्मादश्वा अजायन्त ये तेजो भयादतः गावोह जज्ञिरे तस्माद् तस्माज्जाता अजावयः यत्पुरुषम् यदधुः तथा व्यकल्पयन् मुखम् किमस्य कौ बाहो कामोरूपादा उच्यजते ब्राह्मणस्य मुखमासीत् बाहोराजन्यः कृतः ऊरो तदस्य यद्वैश्यः पद्भ्यागुम् श्रोद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोर्जौः समवर्तत पद्भ्याम् भोमिर्दिश श्रोत्रात् तथा लोकानम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदनुयदासे भाता पुरस्ताद्यमुदा जहार शक्रः प्रभिद्वान् प्रतिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अर्भ्यः सम्भोधः पृथिव्यैरसाच्या विश्वकर्मणः समवर्तताधि तस्य त्वष्टापि दधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्ताद् तमेवम् विद्वानमृत इह भवति नान्यः पन्था युध्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमाना बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति मेधसः यो देवेभ्य आगपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमाहृजाय ब्राह्मये ऋजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असंवसे श्रीश्चले लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ यात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण तच्छञ्जोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम् कांसोऽस्मिताम् हिरण्यप्राकारामार्द्राञ्जुलम् वीम् वृत्ताम् तर्पयन्तीम् पद्मेष्ठिताम् पद्मवह्नाम् तामिहो बह्वये श्रियम् चन्द्राम्ब्रभासाञ्जसाज्ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रवद्ये लक्ष्मीर्मेलिष्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽध बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देव सखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमुद्भिम् ददातु मे शुक्तिपादामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वाणि निर्नदमे गृहान् गन्धद्वाराम् दुराधर्षाम् नित्य पुष्टाम् करीषिणीम् ईश्वरीकम् सर्वभूतानाम् तामिहो बह्वये श्रियम् मनसः काममाकोटिम् वाचः सत्यमजीमहे पशूनाकुम् रूपमन्नस्य महि श्रीश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपश्रयन्तस्निग्धानि चिक्लीतव समे गृहे नितदेवीम् मातरम् दुर्यम् वासय मे कुले आद्राम् पुष्करिणीम् पुष्प्यम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह आर्द्राम् यः करिणीम् जष्टिम् पिङ्गळाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतङ्गावो दास्योऽश्वानविन्देयम् पुरुषानहम् यश्रियप्रयतो भूत्वा जुहुयालाद्यमन्नहम् श्रियः पञ्चदशर्जम् च श्रीकामस्त तदञ्जपे आनन्दः कर्तमश्चैव चिक्लीत इति विश्रुताः ऋषयस्ते त्रयः पुत्रा स्वयम् श्रीदेवदेवता पद्मानने पद्मभूरो पद्माक्षी पद्मसम्भवे त्वम् भयस्व पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायि च गोदायि हरधायि महाधने धनम् मे जुषताम् देवीम् सर्वकामार्थसिद्धये पुत्रपौत्रधनम् धान्यम् हस्त्यश्वाजा विगोरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् चन्द्राभाल्लक्ष्मीमीशानाम् सूर्याभाम् श्रियमेश्वरीम् चन्द्रसूर्याग्निसर्वाभाम् श्रीमहालक्ष्मीमुपास्महे धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैरदेय सोमम् पिब सोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनी न क्रोधो न जमात्सर्यम् न लोभो नाशुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षम् सुदेविभावरिदिवो अभ्रस्य विद्युतः रोहम् सर्वबीजान्यपब्रह्मद्विषोजिः पद्मप्रिये पद्मनि पद्महस्ते पद्मालये पद्मदलाय दाक्षे विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मम् महिषम् निधत्स्व यासा पद्मासनस्थाविमलकटितटे पद्मपत्राय दाक्षे गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्माभिलाहेवरुम्भैः निच्चंसा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतलयां श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववलिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मेर्मोक्षलक्ष्मेर्जयलक्ष्मीः सरस्वते श्रीलक्ष्मेर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा पराङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभान् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीन्द्राम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रतिशस्यतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वन्नारायणकुम्भरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्मतत्त्वम् नारायणः परः नारायणपरो ध्याताध्यानम् नारायणः परः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यधोमुखम् अधो निष्ट्यापि तस्यान्तेनाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगम् शिलाभिस्तुलम् वद्याकोशसन्निभम् तस्यान्ते सुशिरगम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः सोऽग्रभग्विभजम् तिष्ठन्नाहारवजरः कविः तिर्ययोर्ध्वमधशायीरश्मयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्थगः तस्य मध्ये वह्निशिखा अणीयोऽर्भाव्यवस्थितः नीलतो यदमध्यस्ताद्विद्युल्लेखे बभास्वरा नीवारशोकवत्तन्वीपीताभा स्वच्छणोपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः सब्रह्मसदिवः सहरिष्येन्द्रस्वाक्षरः परमस्वराड् योपाम्बुष्पम् वेद पुष्पवान् प्रजावान् पशुवान् भवति चन्द्रमा वा अपाम्बुष्पम् पुष्पवान् प्रजावान् पशुवान् भवति य एवम् वेद योपामायतनं वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति यो अग्नेरायतनं वेद आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवं वेद योपामायतनं वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनं वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेद योपामायतनं वेद आयतनवान् भवति असं वैतपन्नपामायतनम् आयतनवान् भवति योमश्यतपद आयतनं वेद आयतनवान् भवति आपो वा अमश्यतपद आयतनम् आयतनवान् भवति य एवं वेद योपामायतनं वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनं वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेद योपामायतनं वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनं वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेद योपामायतनं वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनं वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेद यो वामायतनं वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनं वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेद योऽप्सुनाभं प्रतिष्ठितां वेद प्रत्येव तिष्ठति किं तद्विष्णोर्बलमाहुः का दीप्तिः किं परायणम् एको यद्धारयद्देवः वेजदीरोदसी उभे वाताद्विष्णोर्बलमाहुः अक्षराद्दीप्तिरुच्यते कृपणाद्धारयद्देवः यद्विष्णोरेकमुत्तमम् राजाधिराजाय प्रसह्यसाहिने नमो वयं वै श्रवणाय कृन्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातो कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायोः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्नस्य रविभूतेषु गुहायां विश्वमूर्तिषु त्वम् త్వం యజ్ఞస్త్వం వషట్కాలస్త్వమింద్రస్త్వగం రుద్రస్త్వం విష్ణుస్త్వం బ్రహ్మత్వం ప్రజాపతిః త్వం తదాపహాభోజ్యోతిరథోరుతం బ్రహ్మభూర్భువస్సుభరోం అథైతం విష్ణవే జరం నిర్వపతి యజ్ఞో వై విష్ణుః యజ్ఞ ఏవాంతత ప్రతిష్టతి హోత్రజోగి విష్ణవే స్వాహ యజ్ఞాయ స్వాహ ప్రతిష్టాయై స్వాహేతి నారాయణాయ విద్మహే వాసుదేవాయ ధీమహి తన్నో విష్ణుః ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్రః ప్రచోదయాత్ ఈశాన సర్వవిద్యానామీశ్వరః సర్వభూతానాం బ్రహ్మాధిపతిర్బ్రహ్మణోధిపతిర్బ్రహ్మ శివో మే అస్తు సదా శివోం లక్ష్మీం క్షీరసముద్రరాజతనయాం శ్రీరంగధామేశ్వరీం దాసీభూతసమస్తదేవవనితాం లోకైకదీపాంకురాం శ్రీమన్మందకటాక్షలబ్ధవిభవద్బ్రహ్మేంద్రగంగాధరాం వాం త్రైలోక్యకుటుంబినీం సరసిజాం వందే ముకుందప్రియాం శుద్ధలక్ష్మీర్మోక్షలక్ష్మీర్జయలక్ష్మీ సరస్వతీ శ్రీలక్ష్మీర్వరలక్ష్మీశ్చ ప్రసన్నా మమ సర్వదా వరాంకుశోపాశమభీతిముద్రాంకరైర్వహంతీం కమలాసనస్థాం బాలార్కకోటి ప్రతిభాం త్రినేత్రాం భజేహమంబాం జగదీశ్వరీనాం సర్వమంగళమాంగళ్యే శివే సర్వార్థసాధికే శరణ్యే త్రయంబకే దేవి నారాయణి నమోస్తుతే మహాలక్ష్మీ చ విద్మహే విష్ణుపత్నీ చ ధీమహే తన్నో లక్ష్మీః ప్రచోదయాత్ ఓం నిధనపతయే నమః నిధనపదాంతికాయ నమః ఊర్ధ్వాయ నమః ఊర్ధ్వలింగాయ నమః హిరణ్యాయ నమః హిరణ్యలింగాయ నమః సువర్ణాయ నమః సువర్ణలింగాయ నమః దివ్యాయ నమః దివ్యలింగాయ నమః భవాయ నమః భవలింగాయ నమః శర్వాయ నమః శర్వలింగాయ నమః శివాయ నమః శివలింగాయ నమః జ్వలాయ నమః జ్వలలింగాయ నమః ఆత్మాయ నమః ఆత్మలింగాయ నమః పరమాయ నమః పరమలింగాయ నమః ఏతత్ సోమస్య సూర్యస్య సర్వలింగగో స్థాపయతి పాణిమంత్రం పవిత్రం సద్యో జాతం ప్రవద్యామి సద్యో జాతాయ వై నమో నమః భవే భవేనాది భవే భవ స్వమాం భవద్భవాయ నమః వామదేవాయ నమో జ్యేష్ఠాయ నమః శ్రేష్ఠాయ నమో రుద్రాయ నమః కాళాయ నమః కలవికరణాయ నమో బలవికరణాయ నమో బలాయ నమో బలప్రమథనాయ నమః సర్వభూతదమనాయ నమో మనోన్మనాయ నమః అఘోరేభ్యో ధఘోరేభ్యో ఘోరఘోరతరేభ్యః సర్వేభ్యః సర్వశిర్వేభ్యో నమస్తే అస్తు రుద్రరూపేభ్యః తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్రః ప్రచోదయాత్ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणाधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो। पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात्। तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्। तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्त्यः प्रचोदयात्। तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात्। तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात्। तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात्। वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात्। नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्। वज्रनखाय विद्महे तीक्ष्णदग्धृष्ट्राय धीमहि तन्नो नारसिंहः प्रचोदयात्। भास्कराय विद्महे महद्युतिकराय धीमहि तन्नो आदित्यः प्रचोदयात्। वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात्। कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गः प्रचोदयात्। ॐ स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। लोकाः समस्ताः सुखिनो भवन्तु। काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी। देशोऽयम् क्षोभरहितः। ब्राह्मणाः सन्तु निर्भयाः। अपुत्राः पुत्रिणः सन्तु, पुत्रिणः सन्तु पौत्रिणः। अधनाः सधनाः सन्तु, जीवन्तु जनताम् शतम्। ॐ शान्ति शान्ति शान्तिः। सर्वे जनाः सुखिनो भवन्तु।